ऋषय ऊचुः सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक वयम् चातितयः प्राप्ता अतितेयोऽसि सव्रत ज्ञानदानेन संसारसागरात्तारयस्व नः कलौ कलुषचित्ताये नरः पापरतः सदा केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः इष्टसिद्धिकरम् पुण्यम् दुःखदारिद्र्यनाशनम् सर्वरोगहरम् स्तोत्रम् सूतनो वक्तुमर्हसि सूत उवाच शृणुत्वम् ऋषयः सर्वे नैमिषारण्यवासिनः तत्त्वज्ञस्तपसो निष्ठाः सर्वशास्त्रविशारदाः स्वयम् भुवा पुरा प्रोक्तम् नारदाय महात्मने तदहम् सम्प्रवक्ष्यामि श्रोतुम् कौतूहलम् यदि ऋषय ऊचुः किमाह भगवान् ब्रह्मा नारदाय महात्मने सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् सूत उवाच दिव्यसिंहासनासीनम् सर्वदेवैरभीष्टुतम् साष्टाङ्गम् प्रणिपत्यैनम् ब्रह्माणम् भुवनेश्वरम् नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः नारद उवाच लोकनाथसुरश्रेष्ठ सर्वज्ञकरुणाकर षण्मुखस्य वरम् स्तोत्रम् पावनम् पापनाशनम् हे दातः पुत्र वात्सल्यात् तद्वद प्रणताय मे उपदिष्ट्वा तु मामेवम् रक्ष रक्ष कृपानिधे ब्रह्मोवाच शृणु वक्ष्यामि देवर्षेस्तव राजमिदम् परम् मातृकामालिकायुक्तम् ज्ञानमोक्षसुखप्रदम् सहस्राणि च नामानि षण्मुखस्य महात्मनः यानि नामानि दिव्यानि दुःखरोगहराणि च जपमात्रेण सिद्ध्यन्ति मनसा चिन्तितान्यपि इहामुत्र परम् भोगम् लभते नात्र संशयः इदम् स्तोत्रम् परम् पुण्यम् कोटियज्ञफलप्रदम् सन्देहो नात्र कर्तव्यः शृणु मे निश्चितम् वचः अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमालिकामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजम् शक्तिधरोक्षय कार्तिकेय इति शक्तिः क्रौञ्चधर इति कीलकम् शिखिवाहन इति कवचम् षण्मुखाय इति ध्यानम् श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ध्यानम् ध्यायेत् षण्मुखमिन्दुकोटिसदृशम् रत्नप्रभाशोभितम् बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् कर्णालम्बितकुण्डलप्रविलसत्कण्डस्थलाशोभितम् किञ्चित्कङ्कणकिङ्किणीरवयुतम् शृङ्गारसारोदयम् ध्यायेद्दीप्सितसिद्धिदम् शिवसुतम् श्रीद्वादशाक्षरगुहम् केटम् कुक्कुटमङ्कुशम् च वरदम् पाशम् धनुश्चक्रकम् वज्रम् शक्तिमसिम् च शूलमभयम् दोर्भिर्धृतम् षण्मुखम् ध्यायेच्चित्रमयूरवाहनशुभम् चित्राम्बरालङ्कृतम् अचिन्त्यशक्तिरनघस्त्वक्षोभ्यो ह्यपराजितः अनाथवत्सलो मोघस्त्वशोकोऽप्यजरोभयः अत्युदारो ह्यगहरस्त्वग्रगण्यो गृजासुतः अनन्तमहिमापारोऽनन्तसौख्यप्रदोऽव्ययः अनुत्तमोक्षयो नादिरप्रमेयोऽक्षरोच्युतः अकल्मषोभिरामोग्रधुर्यश्चामितविक्रमः अतुलस्त्वमृतो घोरस्त्वनन्तोऽनन्तविक्रमः అనాథనాథో హ్యమలో హ్యప్రమత్తోమర ప్రభు అరిందమోఖిలాధారాస్త్వణిమాదిగుణాగ్రణీ అచంచలో మరస్తుత్యో హ్యకళంకోమితాశన అగ్నిభూరన వంద్యాంగో హ్యద్భుతోభీష్టదాయక అతీంద్రియో హ్యమేయాత్మా హ్యదృశ్యో వ్యక్తలక్షణ ఆపద్వినాశకస్త్వార్యస్త్వాడ్యస్వాగమ సంస్తుతః ఆర్తసంరక్షణస్త్వాద్యస్త్వానందస్త్వార్యసేవితః ఆశ్రితేష్టార్థవరదో హ్యనంతార్థఫలప్రదః ఆశ్చర్యరూపస్త్వానంద ఆపన్నార్తివినాశనః ఇభవక్త్రానుజస్త్విష్టస్త్విభాసురహరాత్మజః ఇతిహాసశ్రుతిస్తుత్య ఇంద్రభోగఫలప్రదః ఇష్టాపూర్తిఫలప్రాప్తిరిష్టేష్టవరదాయకః ఇహాముత్రేష్టఫలదస్త్విష్టదస్వింద్రవందితః ఈడనీయస్త్వీషపుత్ర ఈప్సితార్థప్రదాయకః ఈతిభీతిహరశ్చేడ్య ఈషణత్రయవర్జితః ఉదారకీర్తిరుద్యోగీ చోత్కృష్ణోరుపరాక్రమః ఉత్కృష్టశక్తిరుత్సాహీ హ్యుదారశ్చోత్సవప్రియః ఉజృంభ ఉద్భవశ్చోగ్ర ఉదగ్రశ్చోగ్రలోచనః ఉన్మత్తశ్చోష్ణశమన ఉద్వేగఘోరగేశ్వరః ఉరుప్రభావశ్చోదీర్ణశ్చోమాసూనురుదారధీః ఊర్ధ్వరేతస్తుతస్తూర్ధ్వగతిదస్తూర్విపాలకః ఊర్జితస్తూర్ధ్వగస్తూర్ధ్వ ఊర్ధ్వలోకైకనాయకః ఊర్జవానూర్జితోదారస్తూర్జితోర్జితశాసనః ఋషిదేవగణస్తుత్య ఋణత్రయ విమోచనః ఋజురూపో ఋజుకరో ఋజుమార్గప్రదర్శనః ఋతంభరో హ్యుజుప్రీతో ఋషభస్తృద్ధిదో హ్యుచః లృళోత్తోద్ధారకో లృతభవపాశప్రభంజనః ఏణాంకధర సత్పుత్రస్త్వేక ఏనః ప్రణాశనః ఐశ్వర్యదశ్చైంద్రభోగీ జైదీహశ్చైంద్రవద్యుతిః ఓజస్వీ చౌషధీస్థానశ్చోజోదశ్చోదనప్రియః ఔదార్యశీలస్తౌపమేయ ఔగ్రస్తౌ నత్యదాయకః ఔదార్యస్తౌషధాకారస్త్వౌషధిస్తౌషధధారకః అంశుమాల్యంశుమాలాఢ్య అంబికాతనయోన్నదః అంధకారిసుతోంధత్వహారీ హ్యంబుజలోచనః అస్తమాయోమరాధీశో హ్యస్పష్టోస్తోకపుణ్యదః అస్తామిత్రోస్తరూపశ్చాస్కలత్సుగతిదాయకః కార్తికేయః కామరూపః కుమారః క్రౌంచదారణః కామదః కారణః కామ్యః కమనీయః కృపాకరః కాంచనాభః కాంతియుక్తః కామీ కామప్రదః కవిః కీర్తికృత్కుక్కుటధరః కూటస్థః కువలేక్షణః కుంకుమాంగః క్లమహరః కుశలః కుక్కుటధ్వజః కృషానుసంభవః క్రూరః క్రూరగ్నః కలితాపహృత్ కామరూపః కల్పతరుః కాంతః కల్పితదాయకః కళ్యాణకృత్క్లేశనాశః కృపాలుః కరుణాకరః కలుషగ్నః క్రియాశక్తిః కఠోరః కవచీకృతిః కోమలాంగః కుహూప్రీతః కుత్సితగ్నః కళాధరః ఖ్యాతః ఖేటదరః ఖడ్గీ ఖడ్వాంగీ ఖలనిగ్రహః ఖ్యాతిప్రదః ఖేచరేశః ఖ్యాతేహః ఖేచరస్తుతః ఖరతాపహరః ఖస్తః ఖేచరః ఖేచరాశ్రయః ఖండేందుమౌళితనయః ఖేలాఖేచరపాలకః ఖస్తప్రియః ఖండితాగః ఖేచరీజనపూజితః గాంగేయో గిరిజాపుత్రో గణనాథానుజో గుహః గోప్తా గీర్వాణ సంసేవ్యో గుణాతీతో గుహాశ్రయః గతిప్రదో గుణనిధిర్గంభీరో గిరిజాత్మజః ಗೂಢರೂಪ ಗದಹರ ಗುಣಾಧೀಶೋ ಗುಣಾಗ್ರಣೀ ಗೋಧರೋ ಗಹನೋ ಗುಪ್ತೋ ಗರ್ವಘ್ನೋ ಗುಣವರ್ಧನ ಗುಹ್ಯೋ ಗುಣಜ್ಞೋ ಗೀತಜ್ಞೋ ಗತಾತಂಕೋ ಗುಣಾಶ್ರಯ ಗದ್ಯಪದ್ಯ ಪ್ರಿಯೋ ಗುಣ್ಯೋ ಗೋಸ್ತುತ್ಯೋ ಗಗನೇಚರ ಗಣನೀಯ ಚರಿತ್ರಶ್ಚ ಗತಕ್ಲೇಶೋ ಗುಣಾರ್ಣವ ಗೂರ್ಣಿತಾಕ್ಷೋ ಘೃಣ ನಿಧಿರ್ಘನ ಗಂಭೀರ ಘೋಷಣ ಘಂಟಾನಾದ ಪ್ರಿಯೋ ಘೋರಾ ಘೌಘನಾಶೋ ಘನ ಪ್ರಿಯ ಘನಾನಂದೋ ಘರ್ಮಹಂತ ಘೃಣಿಮಾನ್ ಘೃಷ್ಟಿಪಾತಕ ಘೃಣಿ ಘೃಣಾಕರೋ ಘೋಷೋ ಘೋರ ದೈತ್ಯಾಪಹಾರಕ ಘಟಿತೈಶ್ವರ್ಯ ಸಂದೋಹೋ ಘನಾರ್ಥಿ ಘನ ವಿಕ್ರಮ ಚಿತ್ತಕೃಚ್ಛಿತ್ರವರ್ಣಶ್ಚ ಚಂಚಲಶ್ಚಾಮರದ್ಯುತಿಃ ಚಿನ್ಮಯಶ್ಚಿತ್ಸ್ವರೂಪಶ್ಚ ಚಿದಾನಂದಶ್ಚಿರಂತನಃ ಚಿತ್ರಚೇಲಶ್ಚಿತ್ರತರಶ್ಚಿಂತನೀಯ ಚಮತ್ಕೃತಿಃ ಚೋರಘ್ನಶ್ಚತುರಶ್ಚಾರು ಚಾಮೀಕರ ವಿಭೂಷಣಃ ಚಂದ್ರಾರ್ಕಕೋಟಿ ಸದೃಶಶ್ಚಂದ್ರಮೌಳಿತನೂಭವಃ ಚಾದಿತಾಂಗಶ್ಚದ್ಮಹಂತ ಚೇದಿತಾಖಿಲ ಪಾತಕಃ ಚಟೀಕೃತ ಮಹಾಕ್ಲೇಶಃ ಚತ್ರೀಕೃತ ಮಹಾಯಶಃ ಚೇದಿತಾಶೇಷ ಸಂತಾಪಶ್ಚರಿತಾಮೃತ ಸಾಗರಃ ಚನ್ನತ್ರೈಗುಣ್ಯರೂಪಶ್ಚ ಚಿನ್ನೈನಾಶ್ಚಿನ್ನ ಸಂಶಯಃ ಛಂದೋಮಯಶ್ಚಂದಗಾಮೀ ಚಿನ್ನ ಪಾಶಶ್ಚ ವಿಚ್ಛದಃ ಜಗದ್ದಿತೋ ಜಗತ್ಪೂಜ್ಯೋ ಜಗಜ್ಜೇಷ್ಠೋ ಜಗನ್ಮಯಃ ಜನಕೋ ಜಾಹ್ನವೀಸೂನುರ್ಜಿತಾ ಮಿತ್ರೋ ಜಗದ್ಗುರುಃ ಜಯೀ ಜಿತೇಂದ್ರಿಯೋ ಜೇತ್ರಾ ಜರಾ ಮರಣವರ್ಜಿತಃ ಜ್ಯೋತಿರ್ಮಯೋ ಜಗನ್ನಾಥೋ ಜಗಜ್ಜೀವೋ ಜನಾಶ್ರಯಃ ಜಗತ್ಸೇವ್ಯೋ ಜಗತ್ಕರ್ತಾ ಜಗತ್ಸಾಕ್ಷೀ ಜಗತ್ಪ್ರಿಯಃ ಜಂಭಾರಿವಂದ್ಯೋ ಜಯದೋ ಜಗಜ್ಜನಮನೋಹರಃ ಜಗದಾನಂದ ಜನಕೋ ಜನಜಾಢ್ಯಾಪಹಾರಕಃ ಜಪಾಕುಸುಮ ಸಂಕಾಶೋ ಜನಲೋಚನ ಶೋಭನಃ ಜನೇಶ್ವರೋ ಜಗದ್ವ್ಯಾಪ್ತೋ ಜನಜನ್ಮನಿಬರ್ಹಣಃ ಜಯದೋ ಜಂತು ತಾಪಗ್ನೋ ಜಿತ ದೈತ್ಯಮಹಾವ್ರಜಃ ಜಿತಾಮಾಯೋ ಜಿತಕ್ರೋಧೋ ಜಿತದಂಭೋ ಜನಪ್ರಿಯಃ ಝಂಝಾನಿಲ ಮಹಾವೇಗೋ ಝಟಿತಾಶೇಷ ಪಾತಕಃ ಝರ್ಝರೀಕೃತ ದೈತ್ಯೌಘೋ ಝಲ್ಲರೀ ವಾದ್ಯ ಸುಪ್ರಿಯಃ ಜ್ಞಾನಮೂರ್ತಿರ್ಜ್ಞಾನಗಮ್ಯೋ ಜ್ಞಾನೀ ಜ್ಞಾನಮಹಾನಿಧಿಃ ಟಂಕಾರನೃತ್ಯ ವಿಭವಷ್ಟಂಕ ವಜ್ರಧ್ವಜಾಂಕಿತಃ ಟಂಕಿತಾಖಿಲ ಲೋಕಶ್ಚ ಟಂಕಿತೈನಸ್ತಮೋರವಿಃ ಡಂಬರ ಪ್ರಭವೋ ಡಂಭೋ ಡಂಭಾಡಮರುಕ ಪ್ರಿಯಃ ಡಮರೋತ್ಕಟ ಸನ್ನಾದೋ ಡಮರೋತ್ಕಟ ಜಾಂಡಜಃ ಡಕ್ಕಾನಾದ ಪ್ರಿಯಕರೋ ಡಲಿತಾರವ ಸಂಕುಲಃ ಡಾಕಿತಾಮರ ಸಂದೋಹೋ ದುಂಡಿ ವಿಘ್ನೇಶ್ವರಾನುಜಃ ತತ್ವಜ್ಞಸ್ತತ್ವಗಸ್ತೀವ್ರಸ್ತಪೋರೂಪಸ್ತಪೋಮಯಃ ತ್ರಯೀಮಯಸ್ತ್ರಿಕಾಲಜ್ಞಸ್ತ್ರಿಮೂರ್ತಿಸ್ತ್ರಿಗುಣಾತ್ಮಕಃ ತ್ರಿದಶೇಷಸ್ತಾರಕಾರಿಸ್ತಾಪಜ್ಞಸ್ತಾಪಸಪ್ರಿಯಃ ತುಷ್ಟಿದಸ್ತುಷ್ಟಿಕೃತ್ತೀಕ್ಷ್ಣಸ್ತಪೋರೂಪಸ್ತ್ರಿಕಾಲವಿತ್ ಸ್ತೋತಾಸ್ತವ್ಯಸ್ತವ ಪ್ರೀತಸ್ತುತಿಸ್ತೋತ್ರಸ್ತುತಪ್ರಿಯಃ ಸ್ಥಿತಸ್ಥಾಯೀ ಸ್ಥಾಪಕಶ್ಚ ಸ್ಥೂಲ ಸೂಕ್ಷ್ಮ ಪ್ರದರ್ಶಕಃ ಸ್ಥವಿಷ್ಟಸ್ಥವಿರಸ್ಥೂಲಸ್ಥಾನದಸ್ಥೈರ್ಯದಸ್ಥಿರಃ ದಾಂತೋದಯಾಪರೋದಾತಾ ದುರಿತಜ್ಞೋದುರಾಸದಃ ದರ್ಶನೀಯೋದಯಾಸಾರೋ ದೇವದೇವೋದಯಾನಿಧಿಃ ದುರಾದರ್ಶೋ ದುರ್ವಿಗಾಹ್ಯೋ ದಕ್ಷೋ ದರ್ಪಣಶೋಭಿತಃ ದುರ್ಧರೋದಾನಶೀಲಶ್ಚ ದ್ವಾದಶಾಕ್ಷೋ ದ್ವಿಷಡ್ಭುಜಃ ದ್ವಿಷಟ್ಕರ್ಣೋ ದ್ವಿಷಡ್ಬಾಹುರ್ದೀನಸಂತಾಪನಾಶನಃ ದಂತಶೂಕೇಶ್ವರೋ ದೇವೋ ದಿವ್ಯೋ ದಿವ್ಯಾಕೃತಿರ್ದಮಃ ದೀರ್ಘವೃತ್ತೋ ದೀರ್ಘಬಾಹುರ್ದೀರ್ಘದೃಷ್ಟಿರ್ದಿವಸ್ಪತಿಃ ದಂಡೋ ದಮಯಿತ ದರ್ಪೋ ದೇವ ಸಿಂಹೋ ದೃಢವ್ರತಃ ದುರ್ಲಭೋ ದುರ್ಗಮೋ ದೀಪ್ತೋ ದುಷ್ಪ್ರೇಕ್ಷೋ ದಿವ್ಯಮಂಡನಃ ದುರೋದರಘ್ನೋ ದುಃಖಘ್ನೋ ದುರಾರಿಘ್ನೋ ದಿಶಾಂಪತಿಃ ದುರ್ಜಯೋ ದೇವಸೇನೇಶೋ ದುರ್ಜ್ಞೇಯೋ ದುರತಿಕ್ರಮಃ ದಂಭೋ ದೃಪ್ತೋ ದೇವ ಋಷಿರ್ದೈವಜ್ಞೋ ದೈವಚಿಂತಕಃ ದುರಂಧರೋ ಧರ್ಮಪರೋ ಧನದೋ ಧೃತಿವರ್ಧನಃ ಧರ್ಮೇಶೋ ಧರ್ಮಶಾಸ್ತ್ರಜ್ಞೋ ಧನ್ವೀ ಧರ್ಮಪರಾಯಣಃ ಧನಾಧ್ಯಕ್ಷೋ ಧನಪತಿರ್ಧೃತಿಮಾನ್ ಧೃತಕಿಲ್ಬಿಷಃ ಧರ್ಮಹೇತುರ್ಧರ್ಮಶೂರೋ ಧರ್ಮಕೃದ್ಧರ್ಮವಿದ್ರುಮಃ ಧಾತಾ ಧೀಮಾನ್ ಧರ್ಮಚಾರೀ ಧನ್ಯೋ ದುರ್ಯೋ ಧೃತವ್ರತಃ ನಿತ್ಯೋತ್ಸವೋ ನಿತ್ಯತೃಪ್ತೋ ನಿರ್ಲೇಪೋ ನಿಶ್ಚಲಾತ್ಮಕಃ ನಿರವಧ್ಯೋ ನಿರಾಧಾರೋ ನಿಷ್ಕಳಂಕೋ ನಿರಂಜನಃ ನಿರ್ಮಮೋ ನಿರಹಂಕಾರೋ ನಿರ್ಮೋಹೋ ನಿರುಪದ್ರವಃ ನಿತ್ಯಾನಂದೋ ನಿರಾತಂಕೋ ನಿಷ್ಪ್ರಪಂಚೋ ನಿರಾಮಯಃ ನಿರವಧ್ಯೋ ನಿರೀಹಶ್ಚ ನಿರ್ದ್ವಂದ್ವೋ ನಿರ್ಮಲಾತ್ಮಕಃ ನಿತ್ಯಾನಂದೋ ನಿರ್ಜರೇಶೋ ನಿಸ್ಸಂಗೋ ನಿಗಮಸ್ತುತಃ ನಿಷ್ಕಳಂಕೋ ನಿರಾಲಂಬೋ ನಿಷ್ಪ್ರತ್ಯೂಹೋ ನಿಜೋದ್ಭವಃ ನಿತ್ಯೋ ನಿತ್ಯೈಕ ಕಲ್ಯಾಣೋ ನಿರ್ವಿಕಲ್ಪೋ ನಿರಾಶ್ರಯಃ ನೇತಾ ನಿಧಿರ್ನೈಕ ರೂಪೋ ನಿರಾಕಾರೋ ನದೀಸುತಃ ಪುಳಿಂದ ಕನ್ಯಾ ರಮಣೋ ಪುರಜಿತ್ ಪರಮ ಪ್ರಿಯಃ ಪ್ರತ್ಯಕ್ಷ ಮೂರ್ತಿ ಪ್ರತ್ಯಕ್ಷ ಪರೇಶ ಪೂರ್ಣ ಪುಣ್ಯದಃ ಪುಣ್ಯಕರೋ ಪುಣ್ಯ ರೂಪೋ ಪುಣ್ಯ ಪುಣ್ಯಪರಾಯಣಃ ಪುಣ್ಯೋದಯ ಪರಂಜ್ಯೋತಿ ಪುಣ್ಯಕೃತ್ ಪುಣ್ಯವರ್ಧನಃ ಪರಾನಂದ ಪರಾತ್ಪರ ಪುಣ್ಯಕೀರ್ತಿ ಪುರಾತನಃ ಪ್ರಸನ್ನ ರೂಪ ಪಾಂಡ್ಯೇಶ ಪನ್ನಗ ಪಾಪನಾಶನಃ ಪ್ರಣತಾರ್ತಿಹರ ಪೂರ್ಣ ಪಾರ್ವತೀನಂದನ ಪ್ರಭುಃ ಪೂತಾತ್ಮ ಪುರುಷ ಪ್ರಾಣ ಪ್ರಭವ ಪುರುಷೋತ್ತಮಃ ಪ್ರಸನ್ನ ಪರಮಸ್ಪಷ್ಟ ಪರ ಪರಿವೃಡ ಪರಃ ಪರಮಾತ್ಮ ಪರಬ್ರಹ್ಮ ಪರಾರ್ಥ ಪ್ರಿಯ ದರ್ಶನಃ ಪವಿತ್ರ ಪುಷ್ಟಿದ ಪೂತಿ ಪಿಂಗಳ ಪುಷ್ಟಿವರ್ಧನಃ ಪಾಪಹಾರೀ ಪಾಶಧರ ಪ್ರಮತ್ತಾಸುರ ಶಿಕ್ಷಕಃ ಪಾವನ ಪಾವಕ ಪೂಜ್ಯ ಪೂರ್ಣಾನಂದ ಪರಾತ್ಪರಃ ಪುಷ್ಕಲ ಪ್ರವರ ಪೂರ್ವ ಪಿತೃಭಕ್ತ ಪುರೋಗಮಃ ಪರಬ್ರಹ್ಮ ಸ್ವರೂಪಶ್ಚ ಪರಮೈಶ್ವರ್ಯ ಕಾರಣಃ ಪ್ರಾಣದ ಪ್ರಾಣಜನಕ ಪ್ರತಿಷ್ಟ ಪಾವಕೋದ್ಭವಃ ಪರಾರ್ಥದ ಪುಷ್ಟಿಕರ ಪ್ರಕಾಶಾತ್ಮ ಪ್ರತಾಪವಾನ್ ಪ್ರಜ್ಞಾಪರ ಪ್ರತಿಷ್ಠಾರ್ಥೋ ಪೃತು ಪೃತು ಪರಾಕ್ರಮಃ ಫಣೀಶ್ವರ ಫಣಿವರ ಫಣಾಮಣಿವಿಭೂಷಣಃ ಫಲದ ಫಲಹಸ್ತಶ್ಚ ಪುಲ್ಲಾಂಬುಜವಿಲೋಚನಃ ಪಟ್ಪಟ್ ಪಾಟಿತ ಪಾಪೌಘ ಪಣಿರಾಜ ವಿಭೂಷಣಃ ಬಾಹುಲೇಯೋ ಬ್ರಹ್ಮರೂಪೋ ಬಲಿಷ್ಠೋ ಬಲವಾನ್ ಬಲೀ ಬ್ರಹ್ಮೇಶ ವಿಷ್ಣು ರೂಪಶ್ಚ ಬುದ್ಧೋ ಬುದ್ಧಿಮತಾಂಬರಃ ಬಾಲರೂಪೋ ಬೃಹತ್ಗರ್ಭೋ ಬ್ರಹ್ಮಚಾರೀ ಬುಧಪ್ರಿಯಃ ಬಹುಶ್ರುತೋ ಬಹುಮತಿಃ ಬ್ರಹ್ಮಣ್ಯೋ ಬ್ರಾಹ್ಮಣಪ್ರಿಯಃ ಬಲಪ್ರಮಥನೋ ಬ್ರಹ್ಮ ಬಹುರೂಪೋ ಬಹುಪ್ರದಃ ಬೃಹದ್ಭಾನುತನೂಭೂತೋ ಬೃಹತ್ಸೇನೋ ಬಿಲೇಶಯಃ ಬಹುಬಾಹುಬಲ ಶ್ರೀಮಾನ್ ಬಹುದೈತ್ಯವಿನಾಶಕಃ ಬಿಲದ್ವಾರಾಂತರಾಳಸ್ಥೋ ಬೃಹತ್ ಶಕ್ತಿಧನುರ್ಧರಃ ಬಾಲಾರ್ಕದ್ಯುತಿಮಾನ್ ಬಾಲೋ ಬೃಹದ್ವಕ್ಷಾ ಬೃಹತ್ತಮಃ ಭವ್ಯೋ ಭೋಗೀಶ್ವರೋ ಭಾವ್ಯೋ ಭಾವನಾಶೋ ಭವಪ್ರಿಯಃ ಭಕ್ತಿಗಮ್ಯೋ ಭಯಹರೋ ಭಾಗಜ್ಞೋ ಭಕ್ತಸುಪ್ರಿಯಃ ಭುಕ್ತಿಮುಕ್ತಿಪ್ರದೋ ಭೋಗೀ ಭಗವಾನ್ ಭಾಗ್ಯವರ್ಧನಃ ಭ್ರಾಜಿಷ್ಣುರ್ಭಾವನೋ ಭರ್ತಾ ಭೀಮೋ ಭೀಮ ಪರಾಕ್ರಮಃ ಭೂತಿದೋ ಭೂತಿಕೃದ್ಭೋಕ್ತಾ ಭೂತಾತ್ಮ ಭುವನೇಶ್ವರಃ ಭಾವಕೋ ಭದ್ರಕೃದ್ಭೂಷ್ಟುರ್ಭಾವಕೇಶ್ನೋ ಭವೋದ್ಭವಃ भवतापप्रशमनो भोगवान् भूतभावनः भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः भूरिभोगप्रदो भद्रो भजनीयोऽभिषक्पतिः महासेनो महोदारो महाशक्तिर्महाद्युतिः महाबुद्धिर्महावीर्यो महोत्साहो महाबलः महाभोगी महामायी मेधावी मेखली महान् मुनिस्तुत्यो महामान्यो महानन्दो महायशाः महोर्जितो माननिधिर्मनोरथफलप्रदः महोदयो महापुण्यो महाबलपराक्रमः मानदो मतिदो मानी मुक्ता माला विभूषणः मनोहरो महामुख्यो महर्दिमूर्तिमान् मुनिः महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः मुदाकरो मुक्तिदाता महाभोगो महोरगः यशस्करो योगयोनिर्योगिष्ठो यमिनाम्बरः यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः यातनारहितो योगी योगीशो योगिनां वरः रमणीयो रम्यरूपो रसज्ञो रसभावकः रञ्जनो रञ्जितो राज्ञो रुचिरो रुद्रसम्भवः रणप्रियो रणोदारो रागद्वेषविनाशनः रत्नार्चिरुचिरो रम्यो रूपलावण्यविग्रहः रत्नाङ्गदधरो रत्नभूषणो रमणीयकः रुचिकृद्रो च मानश्च रञ्जितो रोगनाशनः राजीवाक्षो राजराजो रत्नमाल्यानुलेपनः ऋग्यजुस्साम संस्तुत्यो रजः सत्त्वगुणान्वितः रजनीशकलारम्यो रत्नकुण्डलमण्डितः रत्नसन्मौलिशो बाढ्यो रजन्मञ्जीरभूषणः लोकैकनाथो लोकेशो ललितो लोकनायकः लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः लोकबन्धुर्लोकदान्ता लोकत्रयमहाहितः लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः लोकाध्यक्षस्तु लीलावते लोकोत्तरगुणान्वितः वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः विबुदाग्रचरो वश्यो विकल्पपरिवर्जितः विपाशो विगतातङ्को विचित्राङ्गो विरोचनः विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः वचस्करो व्यापकश्च विज्ञानी विनयान्वितः विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् विश्वकर्मार्जितभयो वागीशो वासवार्जितः वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वराननः विशाखो विमलो वाग्मी विद्वान् वेदधरो वटुः वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः विजयी विनयी वेत्ता वरियान् वीरजो वसुः वीरघ्नो विज्वरो वेद्यो वेगवान् वीर्यवान् वशी वरशीलो वरगुणो विशोको वज्रधारकः शरजन्मा शक्तिधरः शत्रुघ्नः शिकिवाहनः श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः शरण्यः शुभदः श्रीमान् शिष्टेष्टः शुभलक्षणः शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः षण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः षट्चक्रस्तः षडूर्मिघ्नः षडङ्गः श्रुतिपारगः षड्भावरहितः षट्कः षट्शास्त्रश्रुतिपारगः षड्वर्गदाता षड्ग्रीवः षडरिग्नः षडाश्रयः षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः षट्कोणमध्यनिलयः षण्डत्वपरिहारकः सेनानिः सुभगस्कन्दः सुरानन्दः सतां गतिः सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः सिद्धार्थः सिद्धसङ्कल्पः सिद्धः साधुसुरेश्वरः सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः सुदापतिः स्वयम् ज्योतिः स्वयम्भू सर्वतोमुखी समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्त्वसाधकः सम्भाव्यः सुमनः सेव्यः सकलागमपारगः सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः सर्वदेवमयः सत्यः सर्वमृष्ठान्नदायकः सुयमी सुमना सत्यः सर्वविघ्नविनाशनः सर्वदुःखप्रशमनः सुकुमारः सुलोचनः सुग्रीवः सुशिरस्यारः सुराराध्यः सुविक्रमः सुरारिघ्नस्वर्णवर्णः सर्पराजः सदाशुचिः सप्ताचिर्भूसुरवरः सर्वायुधविशारदः हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः हस्तचित्तायुधधरो हृताघोहसिताननः हेमभूषो हरिद्वर्णो हृष्टदो हृष्टिवर्धनः हेमाद्रिबिद्धं सरूपो हुङ्कारो हतकिल्बिषः हेमाद्रिजाता तनुजो हरिकेशो हिरण्मयः हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः हिरण्यवर्णो हितकृत् हर्षदो हेमभूषणः हरप्रियो हितकरो हतपापो हरोद्भवः क्षेमदः क्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रक्षमाकरः क्षुद्रज्ञः क्षान्तिदः क्षेमक्षितभूषक्षमाश्रयः क्षालितागः क्षितिधरः क्षीणसंरक्षणक्षमः क्षणभङ्गुरसन्नद्धघनशोभितदर्पकः क्षितीन्द्रनाथतनयामुखपङ्कजभास्करः इति नाम्नाम् सहस्राणि षण्मुखस्य च नारदः यः पठेत् शृणुयाद्वापि भक्तियुक्तेन चेतसा स सद्यो मुच्यते पापैर्मनोवाक्काय सम्भवैः आयुर्वृद्धिकरम् पुंसाम् स्थैर्यवीर्यादिवर्धनम् वाक्येनैकेन वक्ष्यामि वाञ्छितार्थम् प्रयच्छति तस्मात् सर्वात्मना ब्रह्मन् नियमेन जपेत् सुधीः इति स्कन्दपुराणे ईश्वरप्रोक्ते अगस्त्यनारदसंवादे सुब्रह्मण्यसहस्रनामस्तोत्रोत्सवम्।